एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयम् नेपाल नागरिकता द्वितीय संशोधन विधेयकम् पारितीकृतम् वर्तते। गृहमन्त्रिणा रमेश लेखकेन ह्यस्तनोपवेशे प्रस्तुतम् नेपाल नागरिकता द्वितीय संशोधन विधेयकम् बहुमतेन पारितीकृतम् अस्ति। विधेयकम् आश्रित्य विहितस्य विमर्शनस्य क्रमे उपवेशे उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः वर्तमान संविधानस्य मर्मणः सर्वोच्च न्यायालयस्य निर्देशनात्मकादेशानाम् च आधारेण नेपाली मातुः लब्धजन्मना जनेन मातुर्नाम्नो नागरिकता प्राप्तेः व्यवस्थाम् सहजाम् विधातुम् नूतनम् विधेयकम् मानितम् अस्तीति समस्पष्टयत। एवमेव प्रतिनिधि सभाया ह्यस्तनोपवेशेन सर्वकारस्य वार्षिकाय व्ययकस्य क्रियान्वयनेन सह सम्बद्धम् एतद् विक्रमवर्षीये आर्थिक विधेयकम् राष्ट्रऋणोत्थापन विधेयकम् च पारितीकृते स्तः। उपवेशे उपप्रधानार्थमन्त्रिणा विष्णु पौडेलेन प्रस्तुते विधेयके इमे सभायाः बहुमतेन पारितीकृते वर्तेते। प्रतिनिधि सभाया ह्यस्तनोपवेशोऽपि रासपा राप्रपा दलयोः सांसदानां विरोधस्य मध्ये सञ्चालितः आसीत्। पर्यटनाय देशान्तर प्रवेशानुज्ञा प्रकरणे उच्चस्तरीयानुसन्धानायोगस्य गृहमन्त्रिणः त्याग पत्रस्य च याचनां प्रस्तुत्य रासपा राप्रपा दलाभ्याम् संसदि उपवेशस्य सञ्चालने विरोधः विधीयमानो वर्तते। तत्पूर्वम् उपवेशे प्रधानमन्त्रिणा केपी शर्मा ओलिना संयुक्त राष्ट्रसंघस्य विकासाय वित्त सम्बद्धे चतुर्थे अन्तर्राष्ट्रिय सम्मेलने सहभागितायै नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय अद्य स्पेन देश प्राप्यते। आसन्न सप्ताहं यावत् विभिन्न कार्यक्रमेषु सहभागिता च भविष्यतीति उपवेशे विज्ञापितम् आसीत्। सम्बोधनस्य क्रमे प्रधानमन्त्रिणा ओलिना वर्षायामस्य अस्मिन् समये देशे जलविप्लव भूस्खलनानां संकटोऽस्ति, तत्र सर्वकारः सावधानो वर्तते, सम्भावितस्य संकटस्य प्रतिकरणाय प्रभावकारिरूपेण सर्वकारेण पूर्वकार्याणि विहितानि सन्तीति च कथयता। दशम्याः कक्षायाः परीक्षायां समुचितः परिणामः अधिगतोऽस्तीत्यत्र प्रसन्नता व्यक्तासीत्। प्रतिनिधि सभायाः अपरोपवेश अद्य दिवा एकवादनाय निर्धारितो वर्तते। अद्यतनोपवेशस्य सम्भावित कार्यसूच्यां संघीय सर्वकारीय विधेयकस्य पारितीकरणस्य प्रस्तावः निर्धारितो वर्तते। प्रधानमन्त्री केपी शर्मा ओली संयुक्त राष्ट्रसंघस्य विकासाय वित्त सम्बद्धे चतुर्थे अन्तर्राष्ट्रिय सम्मेलने सहभागितायै नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विदधान ह्य सायं स्पेनदेशाय प्रस्थितो वर्तते। भ्रमणदले प्रथमं महिला राधिका साक्य, प्रधानमन्त्रिणः प्रमुख परामर्शदाता विष्णुरिमालः, अन्याः उच्च व्यक्तयश्च सहभागिन्यो वर्तन्ते। भ्रमणस्य क्रमे प्रधानमन्त्रिणा ओलिना सम्मेलने सम्बोधनस्य स्पेनदेशीय राज्ञा फिलिप द्वितीयेन, स्पेनदेशीय समकक्षिणा सांचेज इत्यनेन, अन्यैः विश्वस्तरीय नेतृभिश्च सह मेलवार्तायाः कार्यक्रमः निर्धारितोऽस्ति। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन प्रधानमन्त्रिणा केपी शर्मा ओलिना अनुपस्थितौ प्रधानमन्त्रिणः दायित्वस्य सम्पादनाय दैनिक प्राशासनिक कार्यभारस्य च कृते उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह निश्चितोऽस्ति। नेपालस्य संविधानस्य अनुसारेण प्रधानमन्त्रिणः परामर्शेन राष्ट्रपतिना पौडेलेन उपप्रधानमन्त्रिणे सिंहाय प्रधानमन्त्रिणः दैनिक प्राशासनिक कार्यस्य दायित्वं निर्धारितमस्तीति राष्ट्रपति कार्यालयेन ज्ञापितम् वर्तते। तात्कालिक नेकपा एमाले दलस्य महासचिवस्य मदन भण्डारिणः चतुस्सप्ततितम जन्म जयन्ती नेकपा एमाले दलेन एतद्दलीय भातृसंघटनैश्च ह्य आराष्टम विविधान कार्यक्रमानायोज्य समायोजितास्ति। जन्मजयन्त्याः अवसरे मदन भण्डारी प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजिते जनतायाः बहुदलीय जनवादस्य दशकत्रयमिति कार्यक्रमे प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली एमाले दलम् एकबद्धम् सत अग्रे वर्धते कोऽपि दलमेतत् त्रोटयितुं न सक्ष्यति ती च अभिव्यनक। तदवसरे प्रधानमन्त्री ओली जननेत्रा मदन भण्डारिणा राष्ट्रिय राजनीतौ योगदानं दिशानिर्देशनं च नेपालस्य राजनीतिक विकास क्रमस्य इतिहासे विशेष कालखण्डोस्तीति प्रत्यपादयत। कार्यक्रमे पूर्व राष्ट्रपति विद्यादेवी भण्डारी अतः परम् एमाले दले एव स्थित्वा आजीवनं दलस्य कार्यं विधास्यते इति उदघोषयत। वन वातावरण मन्त्री ऐनबहादुर साई ठकुरी जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणाय वृक्षाणां रोपणाय बलं ददाति। हरितं वर्धयाम हिमालयान रक्षेम इति समाघोषेण राष्ट्रिय वृक्षारोपण दिवसस्य अवसरे वन भूसंरक्षण विभागेन गोदावरी स्थाने पूर्वे द्युहायोजिते वृक्षारोपण कार्यक्रमे मन्त्री ठकुरी वनस्य संरचनायां विद्यमानानां विधिगत काठिन्यानां समाधानाय प्राचीनम् अधिनियमं समय सापेक्षं संशोधयितुं परिवर्तयितुं च पूर्वकार्यं विद्यमानमस्तीति असूचयत। इति समाचाराः।